ॐ विशुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेयो प्राप्ति निमित्ताय नमः समर्थ धारिणे सर्वमेतद् विजानीयन् मंत्र नाम भीकीलकम् सोऽपि क्षेमं वप्नोति सततं जप तत्परा सिद्ध्यान्तुच्चाटनादिनि वस्तूनि सकलान्यपि एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति न मन्त्र न औषधं तत्र न किञ्चिदपि विद्यते विना जपेन सिद्ध्येत सर्वम् उच्चाटनादिकम् समग्राण्यापि सिद्ध्यन्ति लोकशङ्कामिमंहर कृतानि मन्त्रयामाश सर्वमेव मिदं शुभम् स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं च कारसा समाप्तिर्ना च पुण्यश्च तां यथावन्नियन्त्रणम् सोऽपि शैवं वप्नोति सर्वमेवं न संशया कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहिता ददाति प्रतिगृह्णाति नैन्नतेषा प्रसिदोति इथं रूपेण किलेन महादेवेन किलितम् य निष्किलां विधयन्नं नित्यं जपोति संस्फुटम् सा सिद्धा सा गणा चापि गन्धर्वजायते नरा न चैव्याप्यत तस्तस्य भयं कापि जायते नापमृत्युवशङ्याति मृतमक्षमाप्नुयात् ज्ञाता पारब्रह्म कुर्वीत न कुर्वा न विनश्यति ततो गेतेभ्य सम्पन्नमिदं पारिभ्य देवुधे स्ववैज्ञादि च यत्किञ्चित् दृश्यते लणाजने तात् सर्वं तत्प्रसादेन तेन जपमिदं शुभम् शनिस्तु जपमान अस्मिन् स्तोत्रे सम्पत्तिरश्चके भवित्येव समग्रापि तत पारिभ्यमेव तात् ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदा शत्रुहनि परमक्ष्य स्तुयते शान किञ्जने ॐ